आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। देशः अद्य स्वस्य 77वां गणतंत्र दिवसं उत्साहेन आचरति। राष्ट्रपतिः द्रौपदी मुर्मुः नवदिल्लीस्थे कर्तव्यपथि आयोजिते उत्सवे राष्ट्रं अग्रे प्रेरयति। गणतंत्रदिवसस्य पथसञ्चलनं प्रातः 10:30 आरभ्य प्रायः 90 निमेषपर्यन्तं प्रवर्तयिष्यते। वर्षस्यास्य मुख्य विषयः स्वातन्त्र्यस्य मन्त्रः वन्दे मातरं तथा समृद्धेः मन्त्रः आत्मनिर्भर भारतम् इति। गणतंत्र दिवसस्य पथ संचलनं प्रधानमंत्री श्री नरेन्द्र मोदी महोदयेन राष्ट्रीय युद्ध स्मारके पुष्पांजलिः अर्पणेन आरभ्यते। ततः राष्ट्रपतिः द्रौपदी मुर्मुः कर्तव्यपथि आगमिष्यति, यत्र तस्याः औपचारिक पथ संचलनस्य समये अभिवादनं प्रदास्यते। अस्मिन् औपचारिक पथ संचलने सशस्त्र सेनाः, अर्धसैन्यबलः, सहायक नागरिक बलः, एनसीसी तथा एनएसएस दलानि भागं ग्रहीष्यन्ति। दिल्ली आरक्षकाः गणतंत्र दिवसस्य तथा अन्येषां संबंधित सांस्कृतिक कार्यक्रमाणां सुचारु आयोजनार्थं विस्तृतां यातायात परामर्श सूचनाम् अयच्छत्। गणतंत्र दिवस पथ संचलनं स्वपरम्परागत मार्गेण विजय चौकतः आरभ्य लाल किला पर्यन्तं गमिष्यति। यातायात व्यवस्था सम्यक् भवेत् इति हेतोः विशेष प्रबन्धाः क्रियन्ते। यात्रार्थिनः स्वयात्रां पूर्वमेव नियोजयन्तु तथा प्रतिबन्धित समयेषु मध्य दिल्ली क्षेत्रं न गन्तव्यम्। निवासिनां कृते मार्ग प्रतिबन्ध क्षेत्राणि तथा वैकल्पिक मार्गाः अपि सूचिताः। यातायात प्रतिबन्धाः ह्यः रात्रौ एव प्रवृत्ताः, ते अद्य पथ संचलन पर्यन्तं प्रवर्तयिष्यन्ते। कर्तव्यपथि पथ संचलनस्य समाप्ति पर्यन्तं यातायाताय निर्बन्धः भविष्यति। विजय चौकतः भारतद्वार पर्यन्तं गमनं अपराह्णे 2 पर्यन्तं निषिद्धं भविष्यति। एतदतिरिच्य भारतद्वारस्य समीपे स्थितः सी हेक्सागन प्रातः 9 यातायाताय निषिद्धः भविष्यति। तिलकमार्गे, बहादुर शाह जफर मार्गे तथा नेताजी सुभाष मार्गे अपि यातायात व्यवस्थायां परिवर्तनं भविष्यति। अन्यच्च दिल्ली आरक्षकैः यात्रिकाः आग्रहपूर्वकं सूचिताः यत् पथ संचलन मार्गे तथा तत्समीपवर्ति क्षेत्रे अनिवार्य यात्रां परिहरन्तु। कर्तव्य पथ गमनाय गणतंत्र दिवसस्य समारोहं च द्रष्टुं साहाय्यं कर्तुं दिल्ली मेट्रो अद्य सर्वासु रेखासु स्वसेवाः प्रातः 3 एव आरभत। यानानि प्रातः 3 प्रति 15 निमेषेषु संचलिष्यन्ति, ततः परं दिवसस्य अवशिष्टभागे नियमित समयसारिणी एव वर्तते। दिल्ली मेट्रो द्वारा उक्तं यत् ते यथायोग्यं स्वयात्रां पूर्वमेव नियोजयन्तु तथा अन्तिमक्षणस्य असुविधां परिहर्तुं प्रातः कालिक मेट्रो सेवायाः उपयोगं कुर्वन्तु। असाधारणं योगदानं कुर्वतां सामान्य भारतीयानाम् उत्सवस्य सिद्धान्तम् अनुवर्तयन् प्रशासनेन अस्य वर्षस्य अज्ञात नायकानां पद्म पुरस्काराः घोषिताः। अद्यावधि प्राप्त सूचनानुसारं प्रशासनं पद्मश्री पुरस्काराय 45 जनानां चयनम् अकरोत्। अवधेयं यत् पद्म पुरस्कार विजेतॄणां नामानि प्रत्येकस्मिन् वर्षे गणतंत्र दिवसस्य पूर्व संध्यायां घोषिताः भवन्ति। भारतस्य निर्वाचनायोगः पश्चिम बंगालस्य मुख्य सचिवं निर्देशितवान् यत् बस्टरहाट द्वयम् इत्यस्य सहायक निर्वाचन पंजीकरण अधिकारी तथा खण्ड विकास अधिकारी सुमित्रा प्रतिम प्रधान इत्येनां त्वरित प्रभावेन निलम्बयेत्। भारत न्यूजीलैंड देशयोः मध्ये अनुवर्तमानायां 20-20 क्षेप चक्रीय क्रिकेट स्पर्धा मालिकायां भारतेन विजयम् अवाप्तम् इति वार्ताः।